इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचको नरेन्द्रदत्त सेमवालः। आदौ मुख्यवार्ताः। देशः अधुना प्रौद्योगिक्याः न केवलम् उपभोक्ता अपि तु प्रौद्योगिक्याः प्रगत्याः च अग्रणी अभवत् इति प्रोक्तवान् प्रधानमन्त्री नरेन्द्रमोदी। एकलक्षकोटिरूप्यकाणां रिसर्च डेवलपमेंट इनोवेशन स्कीम फंड इत्येतस्य अपि शुभारम्भं विहितवान्। राष्ट्रपति द्रौपदी मुर्मूवर्या अद्य उत्तराखण्ड राज्य विधानसभायाः एकं विशिष्टं सत्रं सम्बोधितवती। स्वास्थ्य शिक्षा नागरिक विकास क्षेत्रेषु राज्यस्य महत्वपूर्ण प्रगतिम् अपि प्रशंसितवती। तेलंगाना राज्यस्य रंगारेड्डी जनपदे विहिते बस ट्रक यानयोः संघट्टे 19 जनाः मृताः। प्रधानमन्त्री उपराष्ट्रपति च मृतकेभ्यः यात्रिभ्यः शोकं प्रकटितवन्तौ। अपि च केन्द्र सर्वकारेण चतुश्चत्वारिंशदुत्तर चतुश्शत कोटि रूप्यकाणि 15तमस्य वित्त आयोग अनुदानस्य अभ्यन्तरं ग्रामीण क्षेत्रेभ्यः अनुदान राशिः प्रदत्ता अस्ति। अथ वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्रमोदी अकथयत् यत् देशः अधुना प्रौद्योगिक्याः न केवलं उपभोक्ता अपि तु प्रौद्योगिक्य प्रगत्याः अग्रणी अपि अस्ति। सः प्रोक्तवान् यत् प्रौद्योगिक्यां देशस्य प्रगतिः द्रुतगत्या अग्रे वर्धते। प्रधानमन्त्री अद्य प्रातः नवदिल्ल्यां भारतमण्डपम् इत्यत्र इमर्जिंग साइंस एंड टेक्नोलॉजी इनोवेशन कॉन्क्लेव 2025 इत्यस्य उद्घाटनानन्तरं एतत् वक्तव्यं प्रायच्छत्। प्रधानमन्त्री अकथयत् यत् सर्वकारः देशे नवाचारस्य मॉडर्न इकोसिस्टम इत्येतत् निर्मातुं सरलान्वेषणं केन्द्रितं करोति। सः एतदपि सबलं प्रत्यपादयत् यत् देशे विश्वस्य सफलतमः डिजिटल पब्लिक इन्फ्रास्ट्रक्चर इति उपक्रमः अपि निर्मितः अस्ति।
कोविड के दौरान हमने दुनिया का सबसे बड़ा वैक्सीनेशन प्रोग्राम चलाया। इतने मेमथ स्केल पर पॉलिसीज और प्रोग्राम्स को सक्सेसफुली इम्प्लीमेंट करना ये पॉसिबल हुआ क्योंकि आज दुनिया का सबसे पहला और सबसे सफल डिजिटल पब्लिक इंफ्रास्ट्रक्चर अगर किसी के पास है तो उस देश का नाम है हिंदुस्तान।
प्रधानमन्त्री देशे रिसर्च डेवलपमेंट इकोसिस्टम इत्येतस्य सुदृढीकरणम् उद्दिश्य एकलक्षकोटि रूप्यकाणां रिसर्च डेवलपमेंट इनोवेशन स्कीम फंड इत्येतस्य अपि शुभारम्भं विहितवान्।
हमने रिसर्च डेवलपमेंट इनोवेशन स्कीम भी शुरू की है और इसके लिए 1,00,000 करोड़ रुपए की राशि तय की गई है। हमारा प्रयास है कि प्राइवेट सेक्टर में भी रिसर्च एंड डेवलपमेंट को बढ़ावा मिले। पहली बार हाई रिस्क और हाई इम्पैक्ट प्रोजेक्ट के लिए कैपिटल भी उपलब्ध कराई जा रही है।
राष्ट्रपति द्रौपदी मुर्मूवर्या अद्य देहरादूने उत्तराखण्ड राज्य विधानसभायाः एकं विशिष्टं सत्रं सम्बोधितवती। सा राज्यस्य निवासिभ्यः विधायकेभ्यश्च राज्यस्य स्थापना दिवसस्य 25 वर्षाणां पूर्त्यवसरे शुभकामनाः प्रायच्छत्। राष्ट्रपतिवर्या विगतेषु 25 वर्षेषु उत्तराखण्डस्य सर्वोत्तमोपलब्धीनां प्रशंसां कृतवती। राष्ट्रपतिवर्यया पर्यावरणोर्जा पर्यटन स्वास्थ्य शिक्षा औद्योगिकानां विकास क्षेत्रेषु राज्यस्य महत्वपूर्ण प्रगतिः प्रकाशिता। महिला सशक्तीकरणस्य दिशि विहितानां प्रयासानां अपि प्रशंसां कुर्वत्या तया प्रोक्तं यत् सुशीला बलूनी बछेन्द्री पाल वंदना कटारिया सदृशाः महिलाः उत्तराखण्डाय गौरवास्पदं क्षणं प्रायच्छन्।
राज्य में ह्यूमन डेवलपमेंट इंडिसेज के कई मानकों पर सुधार हुआ है। मुझे ये जानकर प्रसन्नता हुई है कि राज्य में साक्षरता बढ़ी, महिलाओं की शिक्षा में विस्तार हुआ है, मातृ एवं शिशु मृत्यु दर भी कमी आई है तथा स्वास्थ्य सेवाओं को सुलभ बनाने में प्रयास किए जा रहे हैं। महिला सशक्तिकरण की दिशा में किए जा रहे प्रयासों की मैं विशेष सराहना करती हूं।
राज्यस्य वीरतायाः आध्यात्मिकतायाः च विषये कथयन्ति राष्ट्रपति मुर्मूवर्या यूनिफॉर्म सिविल कोड इत्यस्य प्रतिष्ठापनं सबलं समर्थयन्ति। राज्य सर्वकारस्य विधानसभायाः च प्रशंसां कृतवती। सा अकथयत् यत् पारदर्शितायाः सामाजिक न्यायेन च प्रेरितः अधिनियमः उत्तराखण्डस्य प्रगतिशीलं विचारं द्योतयति। संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर इति चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। अद्य प्रातः तेलंगाना राज्यस्य रंगारेड्डी जनपदस्य चेवेला नगरस्य समीपे मिर्जागुड़ा खानपुर मार्गे आरटीसी बस यानेन सह ट्रकयानस्य संघट्टः अभवत् येन अस्य मार्ग दुर्घटनायां 19 जनाः मृताः। एषा घटना प्रातः 8 वादने विकराबाद हैदराबाद इति मार्गे अभवत्। मुख्यमंत्री रेवंत रेड्डी इत्येषः अधिकारिभ्यः युद्धस्तरीयं चिकित्सा साहाय्यं दातुं निर्देशं दत्तवान्। तत्र विशेष वैद्यकीय दलानि च प्रेषितानि सन्ति। राष्ट्रपतिः उपराष्ट्रपतिः प्रधानमंत्री च दुखद मार्ग दुर्घटनया मृतानां कृते शोकं प्रकटितवन्तः। प्रधानमन्त्रिणा प्रत्येक मृतानां निकटवर्तिनां कृते प्रधानमन्त्री राष्ट्रिय साहाय्य कोषात् 2 लक्ष रूप्यकाणां अनुग्रह राशेः घोषणा कृता अस्ति। व्रणितेभ्यः च 50,000 रूप्यकाणि दीयन्ते। केन्द्र सर्वकारेण 44,000,000,000 रूप्यकाणि 15तमस्य वित्त आयोग अनुदानस्य अभ्यन्तरं ग्रामीण क्षेत्रेभ्यः अनुदान राशिः प्रदत्ता अस्ति। पंचायतीराज मन्त्रालयेन अद्य सूचितं यत् 20 जनपद पञ्चायतानां 96,200 प्रखण्ड पञ्चायतानां 6,000 ग्राम पञ्चायतानां च कृते 42,300,000,000 रूप्यकाणां द्वितीया अनुदान राशि वितरिता अस्ति। अद्य रात्रौ 9:30 अस्माकं बहुभाषीये पब्लिक स्पीक इति सजीव दूरभाष कार्यक्रमे वयं बैंकिंग लॉज अमेंडमेंट एक्ट 2025 इत्यस्मिन् विषये नवंबर मासस्य एकदिनांकात् प्रख्यापितेषु प्रमुख परिवर्तनेषु एकां सूचनात्मिकां चर्चां करिष्यामः। अस्याम चर्चायां नेशनल ऑर्गेनाइजेशन ऑफ बैंक वर्कर्स इत्यस्य पूर्व मुख्य सचिव अश्विनी राणा, इंडियन इंस्टीट्यूट ऑफ बैंकिंग एंड फाइनेंस इत्यस्य क्षेत्र प्रमुख डॉक्टर नरेंद्र कुमार भसीना च सम्मिलितो भविष्यतः। कार्यक्रमावधौ श्रोतारः प्रख्यापितानां बैंकिंग नियमानां विषये सामान्य नागरिकाणां जीवने तेषां प्रभाव विषये च प्रश्नान् प्रष्टुं शक्नुवन्ति। अस्मिन् कार्यक्रमे भागं भजितुम् अद्य रात्रौ 9:30 011-2-33-10-48 अथवा 011-2-37-17-11 अथवा 011-2-37-17-106 अथवा 011-2-33-1-44-44 इत्यादिषु दूरभाष संकेतेषु संपर्कं कुर्युः। एतदतिरिच्य भवन्तः स्वकीयान् प्रश्नान् व्हाट्सएप इत्यत्र 9289094044 इत्यस्मिन् दूरभाष संकेते अपि च एक्स इत्यत्र हैशटैग आस्क एयर इत्यनेन सह स्वकीयं प्रश्नं संयोज्य च प्रेषितुं शक्नुवन्ति। जयपुर नगरे अद्य अपराह्ने द्रुतगत्या धावमानं डंपर यानम् अनियंत्रितं भूत्वा अनेकानि कारयानानि मोटरसाइकल यानानि च एकैकशः आक्रांतवत्। येन अस्यां दुर्घटनायां 10 जनाः मृताः, अन्ये 23 जनाः च व्रणिताः अभवन्। हरमदा नगरस्य लोहामंडी क्षेत्रे एषा घटना अभवत् यदा डंपर यानस्य ब्रेक्स इत्येतानि विफलीभूतानि, येन एषा भीषण दुर्घटना संजाता। व्रणिताः कनवाटिया चिकित्सालयं प्रति नीताः, अपरत्र प्रायः गंभीर रूपेण व्रणिताः 5 जनाः एसएमएस चिकित्सालयं प्रति प्रेषिताः सन्ति। मुख्यमंत्री भजनलाल शर्मः आहतानां समुचित चिकित्सां कर्तुं अधिकारिभ्यः निर्देशं दत्तवान्। प्रधानमंत्री दुखद मार्ग दुर्घटनया मृतानां कृते शोकं प्रकटितवान्। प्रधानमन्त्रिणा प्रत्येकं मृतानां निकटवर्तिनां कृते प्रधानमन्त्री राष्ट्रिय साहाय्य कोषात् 2 लक्ष रूप्यकाणां अनुग्रह धनराशेः घोषणा कृता अस्ति। वर्णितेभ्यः च 50,000 रूप्यकाणि दीयन्ते। बिहारे विधानसभा निर्वाचनस्य प्रथमचरणस्य प्रचारः श्वः सायंकाले समापनात् पूर्वं पूर्णगत्या प्रवर्तते। प्रमुख प्रचारकाः एनडीए महागठबंधन इत्येतयोः प्रमुखयोः संघटनयोः वरिष्ठ नेतारः च विभिन्नेषु निर्वाचनक्षेत्रेषु बहुविध सार्वजनिक सभाः आयोजयन्ति। अस्मिन् चरणे गुरुवासरे 18 मण्डलेषु 121 निर्वाचनक्षेत्रेषु मतदानं भविष्यति। जनतादलस्य अध्यक्ष मुख्यमंत्री च नीतीशकुमारः अद्य भागलपुर नगरे निर्वाचन समारोहं सम्बोधयन् प्रोक्तवान् यत् तस्य नेतृत्वे बिहार राज्यं विकासस्य मार्गे प्रगतिं कुर्वन् अस्ति। श्रीनीतीशकुमारः अवदत् यत् प्रधानमन्त्रिणा नरेन्द्र मोदिना बिहारस्य कृते विविधाः विकास परियोजनाः उपहाररूपेषु दत्ताः सन्ति।